सर्वेभ्यः सर्वेषां स्वागतम्। अत्र अस्मिन् प्रवर्तमानः विषयः अस्ति तत्र छेत् नो छेत् इति, तत्र अन्तिमभागे स्मः गीतासोपाने प्रथमभागे। तत्र गतवर्गे छेत् नो छेत् अपि तस्य पूर्वं यावत् तावत् यद्यपि तथापि इति तादृशानि अव्ययानि तस्य विषये तेषां विषये चर्चां कृतवन्तः। इदानीं तत्र छेत् नो छेत् इति तत्र एकः अथवा अभ्यासद्वयमस्ति, तत् कृत्वा अग्रे गच्छामः। तत्र हा तत्र प्रायशः एकः एव अभ्यासः अस्ति, तत् गतवर्गे न कृतवन्तः इति मन्ये। अतः तत्र तद् तम् अभ्यासं कृत्वा अग्रे गच्छामः। अतः पेज् 190 मध्ये स्मः। नरेश् महोदय नमस्कारः।
नमस्कारः महोदय।
नमस्कारः। पेज् 190 मध्ये स्मः। तत्र छेत् नो छेत् इति तस्य पुनस्मरणम् आवश्यकं वा? केवलम् अभ्यासं कर्तुं शक्नुमः खलु? अस्तु, गीतांजलि भगिनी अतः आरम्भं करोति वा अभ्यासः पेज् 190 मध्ये?
यथोदाहरणं वाक्यानि रचयत। उदाहरणं, भवान् शीघ्रम् आगच्छतु नो चेत् पिता तर्जयति।
अवगच्छति खलु? तत्र नो चेत् इति आवश्यकम् अस्ति, चेत् इति न, नो चेत् इति।
नो चेत्, नो चेत्,
नो चेत्,
नो अपि नः चेत् विसर्ग
इति तादृशम् इति मन्ये भगिनि। सत्यम्।
सो अत्र गीताम् अर्थसहितं पठतु, भारतीयदर्शनं सम्यक् ज्ञातुं न शक्नोति। गीताम् अर्थसहितं पठतु नो चेत् भारतीयदर्शनं सम्यक् ज्ञातुं न शक्नोमि, न शक्नोति
इति। समीचीनं भगिनि। तत्र अवगत्वा पठनं भवति चेत् तत् सम्यक् भवति। तत्र भारतीयदर्शनम् इत्युक्ते शास्त्रविषये इति मन्ये तत्र।
आं महोदय,
केवलं तत्र शास्त्रविषये विषयाणां सम्यक् ज्ञानं भवितुम् अर्हति इति।
नो चेत् इति नः चेत् न भवितुम् अर्हति,
न चेत् इति नास्ति,
नः न भवति, विसर्गः न भवति, विसर्गः अस्ति चेत् नश्चेत् भवेत्,
अतः
नश्चेत् भवति। विसर्गसन्धि न, विसर्गसन्धि उकार अस्ति चेत् नो भवति, उकार न भवति खलु विसर्ग।
अत्र अत्र समीचीनं भवति, अत्र तत्र नो इति एव रूपम् अस्ति इति
चिन्तयामि। विसर्गः न भवति, अतः
विसर्गः न भवति। अस्तु महोदय,
विसर्गस्य उकार न भवति, अत्र चकार अस्ति चेत् अस्ति खलु, अतः मृदुव्यञ्जनस्वर अस्ति चेत् भवति, अत्र न भवति।
धन्यवादः महोदय।
किन्तु अत्र यदि न एव अस्ति, न
नो कथं भवति, नो न भवति खलु,
नो
इति अव्ययम् अहं चिन्तयामि। एक
ओ अस्ति वा,
अहं चिन्तयामि, परन्तु एतत् नास्ति, नः नास्ति।
अस्तु, नो चेत् इति एव रूपं,
नः इत्यस्य अर्थः अपि भिन्नः अस्ति खलु। नः इति अहम् इति अस्य बहुवचनरूपं,
चतुर्थी तादृश, सत्यं सत्यं,
द्वितीया इति तादृशं रूपम्।
अस्तु अस्तु अस्तु, अतः तत्र द्रष्टव्यम् अस्ति भगिनि। अस्तु
अस्तु महोदय, अन्यरीत्या गीताम् अर्थसहितं पठतु, अतः भारतीयदर्शनं सम्यक् ज्ञातुं न
शक्नोति।
अन्यथा इति भवितुम् अर्हति महोदय,
अन्यथा
सम्यक् वा, अन्यथा सम्यक् अस्ति खलु,
सम्यक् सम्यक् अस्ति इति मन्ये महोदय, अन्यथा तत्र न ज्ञातुं न शक्नोति।
तादृश
तत्र अदर्वैस् इति अर्थे अस्ति खलु, नो
चेत्.
किन्तु यदि अतः योजयित्वा तद् गीतान् अर्थ
अतः इति भवति चेत् तत्र नकारः शक्नोति पूर्वं तद्
गीताम् अर्थसहितं पठतु, अतः भारतीयदर्शनं सम्यक् ज्ञातुं शक्नोति.
तत्र शक्नोति इति, किन्तु एतत् वाक्यं तद् न वदति, केवलं वदति तत्र बाधा अस्ति इति.
तत्तु सत्यं महोदय.
हा तत्र किन्तु एतत् करोति चेत् तद् भवति इति न वदति. वयं जानीमः तत् तत् सत्यमेव, किन्तु केवलं वाक्यस्य अर्थः तादृशः
भवति वा महोदय? येन इति भवति, अतः इति सम्यक् भवति वा? यद्यपि अस्ति तादृशभावना आगच्छति, परन्तु येन गीताम् अर्थसहितं पठतु, येन भारतदर्शनं सम्यक् ज्ञातुं शक्नोति इति इति भवति.
अतः तदेव मम अपि अभिप्रायः महोदय. तत्र
अतः न
बाधा इति बाधा एव अस्ति तत्र. तत् कारणम् एतद् कृत्वा तद् भवितुम् अर्हति इति न उक्तम्. अतः केवलं यदि एतत् न करोति बाधा अस्ति, करोति चेत् प्रायशः अन्या बाधा अपि भवितुम् अर्हति खलु. किन्तु एतत् एतत् न करोति चेत् बाधा भवति इति तावदेव उक्तम्. अतः अस्तु भगिनि, अग्रे अपि.
औषधं स्वीकरोतु, ज्वरः वर्धते. औषधं स्वीकरोतु, नो चेत् ज्वरः वर्धते.
समीचीनं.
ज्वरः इत्युक्ते फीवर् महोदय,
रोगः इति
रोगः.
अतः तत्र आरोग्यं न प्राप्नोति.
ज्वरः इत्युक्ते रोगः महोदय,
टेम्परेचर् अथवा फीवर् इति अर्थे.
फीवर्
तत् वर्धते.
वर्धते.
अग्रिममपि करोतु भगिनि.
पठितं तदा तदा वदतु, विस्मरणं भवति. पठितं तदा तदा वदतु, नो चेत् विस्मरणं भवति.
यद् वयं पठामः तत्र अस्तु, अहम् एकवारं पठितवान्, अस्तु इदानीं जन्मे पुनरपि तस्य पठनं न आवश्यकम् इति चिन्ता न करणीयं. यत् पठितं तद् तदा तदा बहुवारं तस्य तद् वक्तव्यं, नो चेत् तस्य विस्मरणं भवति. समीचीनं भगिनि, अस्तु अग्रे रघुपतिमहोदय.
आम् महोदय, परश्वः भवतः गृहम् आगमिष्यामि, नो चेत् प्रापरश्वः. नो चेत् अत्र सम्यक् पठतु, उत्तीर्णतां कथं प्राप्यते? सम्यक् पठतु नो चेत् उत्तीर्णता कथं प्राप्यते? प्रश्नार्थक तदपि भवति.
तदपि समीचीनमेव.
सुरेशः आगच्छति नो चेत् माम् आह्वयतु.
तत्र प्रायशः किमपि कार्यम् अस्ति, सुरेशः आगत्य कार्यं किमपि करोति, नो चेत्
तादृश,
नो चेत् माम् आह्वयतु, अहम् आगत्य साहाय्यं करोमि इति तादृश अर्थे अस्ति इति मन्ये.
आमां तादृश भिन्नभिन्न अर्थे अस्ति अत्र,
अतः तत्र प्रत्येकवाक्यं दृष्ट्वा एव वक्तुं
शक्नुमः.
अस्तु अग्रिमं किं महोदय?
अस्तु उपविश्य पठतु.
प्रश्न महोदय,
वदतु भगिनि.
अत्र सुरेशः आगच्छति चेत् माम् आह्वयतु, तत्तु
भिन्न अर्थः, तत् भिन्नः अर्थः.
अस्तु,
तत्र यदि सः आगच्छति अहमपि आगच्छामि इति तत् भिन्न अर्थः. अत्र किमपि आवश्यकता अस्ति, अतः एषः वदति सुरेशः आगच्छति, यदि सः न आगच्छति माम् आह्वयतु, अहम् आगत्य किं करणीयं तद् करोमि इति.
अत्र विराम दत्तम्, अतः वयं जानीमः अर्थः कः.
सत्यं भगिनि, तत्र अपि तत्र एतावत् वयं कुत्रापि चेत् इति न तस्य उपयोगं न कृतवन्तः खलु. सर्वत्र नो चेत् इति एव अर्थः एतावत् अस्ति.
यदि विराम न दत्तं तत्र केवल सुरेश आगच्छति डेश् 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 माम् आह्वयतु, तदनन्तरं सुरेश आगच्छति चेत् माम् आह्वयतु, तदपि समीचीनम्.
उपविश्य
पठतु नो चेत् उत्थाय वा पठतु,
किन्तु पठतु
किन्तु पठतु.
निद्रां कृत्वा कुर्वन् अपि किन्तु पठतु.
निद्रां कृत्वा अपि
उत्थाय महोदय, अत्र उत्थाय इति
लेबन्तरूपम्
लेबन्त
लेबन्त वा उत्थाय
योगः.
आमामामाम् उत्थाय इति सत्यम्. उपविश्य अपि तत्र लेबन्तम् उत्थाय अपि लेबन्तं, तत्र कार्य क्रियाद्वयम् अस्ति खलु महोदय. उपविशतु तदनन्तरं पठतु इति लोट्लकारे अस्तु. अस्तु अग्रे रघुवीरानन्दस्वामीजि.
महोदय हरिः ओम्. सः आगच्छतु रिक्तस्थानं भवान् आगच्छतु, सः आगच्छतु नो चेत् भवान् आगच्छतु.
भवान् आगच्छतु
लोट्लकारः द्वयमपि. भवान् आगच्छतु रिक्तस्थानम् अनुजं प्रेषयतु, भवान् आगच्छतु नो चेत् अनुजं प्रेषयतु.
समीचीनं महोदय. अस्तु
लोट्लकारमहोदय, प्रथमपुरुषे एकवचन विना शब्दं पठतु, रिक्तस्थानम् इतः निर्गच्छतु, नो चेत् इतः निर्गच्छतु.
तत् प्रायशः तत्र किं पुस्तकालयं ग्रन्थालयं इति तत्र शब्दं मास्तु इति. अस्तु समीचीनं
महोदय. तत्र न आगच्छति इति न आगच्छति चेत् इति भवितुमर्हति खलु. भवान् आगच्छतु न आगच्छति चेत् अनुजं प्रेषयति इति तत् तदपि भवितुमर्हति वा?
तत्र न आगच्छति चेत् इति सः एव अर्थः नो चेत् इति
सत्यं.
सर्वेषु वाक्येषु महोदय नो चेत् एव
अस्ति सत्यं सत्यम्. अस्तु अत्र तदनन्तरं किं तत्र अग्रे अपि सर्वत्र नो चेत् एव दृश्यते सर्वत्र अत्र न कुर्यां चेत् लोकाः. अस्तु तत् एकवारं
एकं न कुर्यां चेत् इति
तत् एकवारं पठामः खलु भगिनि. अतः तत्र नरेश महोदय अग्रे पठति वा?
आं महोदय. उच्चैः पठत, धर्मयुद्धे विजयः भवति चेत् राज्यं प्राप्नोति, नो चेत् स्वर्गं प्राप्नोति. वृक्ष संवर्धनं करोति चेत् वृष्टिः भवति, नो चेत् अवर्षणम्. इन्द्रियनिग्रहं करोति चेत् योगी, नो चेत् मिथ्याचारी. मुक्तसङ्गः कर्म कुरु, नो चेत् बन्धने तिष्ठति. मयि चित्तं समाधातुं न शक्नोषि चेत् अभ्यासयोगेन मां प्राप्नुहि, नो चेत् मत्कर्म परमः परमः भव.
तत्र नो चेत् इति विकल्पद्वयं दत्तमस्ति तत्र मयि मयि इति रूपं किं महोदय तत्र मयि इति
सप्तमे विभक्ति
हा सप्तमे विभक्ति हा सत्यं महोदय सत्यं हा अतः मयि चित्तं समाधातुं न शक्नोषि चेत् अभ्यासयोगेन मां प्राप्नुहि हा तत्र प्राप्नुहि इति रूपं कोऽपि वदति वा तत्र
लोट्लकारे
लोट्लकारे मध्यमपुरुषे समीचीनं हा बाहि त्राहि तत्तादृश प्राप्नुहि हा मां प्राप्नुहि
तत्र
हा देहि हा समीचीनं महोदय देहि हा हा अतः तत्र तद् एकः नो चेत् अस्ति नो चेत् अतः तत्र मयि चित्तं समाधातुं न शक्नोषि चेत् एकम् अभ्यासयोगेन मां प्राप्नुहि अन्यत् अस्ति नो चेत् मत्कर्म परमः भव इति
इत्युक्ते किं महोदय मत्कर्म परमः
हा द्रष्टव्यं भगिनी अन्य कोऽपि वक्तुं शक्नोति वा तत्र गीताश्लोकं द्रष्टव्यम् अस्ति इति मन्ये तत्र
मत्कर्म परमो भव महोदय
वदतु महोदय
यदि चित्तः यदस्ति तद् एकाग्रं कृत्वा भगवती मनसः स्थातव्यं तद् न कर्तुं शक्यते चेत् अभ्यासं पुनः पुनः तत् प्रयत्नं कुरु यदि प्रयत्नलोपमपि अस्ति प्रयत्नात् भवान् न कर्तुं शक्यते तर्हि निष्कामकर्म कुरु
मत्कर्म परम् इत्युक्ते निष्काम महोदय
आम् मत्कर्म परमो भव कर्म यद् ईश्वरार्पितं नेच्छया कृतं तद् निष्कामकर्म भवति कण्डिशन्स् फार् कर्मयोग तत् मत्कर्म परमो भवति
धन्यवादः
ईश्वरार्थं यतो संस्कृतकक्षा इदानीं तत्
हा अस्तु यथा तत्र तत्र प्रसिद्धश्लोकः अस्ति खलु महोदय कायेन वाचा मनसेन्द्रियैर्वा इति तादृश किन्तु तत् सर्वे भवतु इति
आम्
अस्तु
कर्मण्येव अधिकारिस्ते तु मूलश्लोकमस्ति कर्मयोग
अस्तु अस्तु
कर्मयोग
किन्तु निष्काम कर्म कुरु निष्काम भव
निष्काम भव इति नास्ति भगिनि तत्र निष्कामकर्म तत्र कर्मस्य फलं न तस्मिन् इच्छा मास्तु किन्तु यद्यत् करणीयं तत् करोतु इति
किन्तु अत्र भव इति क्रियापदम् अस्ति लोट्लकार किन्तु यदि निष्काम कर्म तदनन्तरं भव योजितुं समीचीनं नास्ति तदनन्तरं कुरु
निष्कामकर्मयोगी
भव इति
कर्म
परं परमः परमः इति
कथमर्हति कोऽपि
तत्र कर्मपरमः इति तत्र कर्म इति तत्र कर्मपदं न सूचयति मत्कर्मपरमः इति इत्युक्ते प्राय यथा महोदयेन उक्तं तत्र
निष्कामकर्मयोगी
हा तादृश भवतु इति अतः तत्र कर्तृपदम् इति
मत् महोदय
मत् मत् इति मयि 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 इति मयि कर्मं कर्मस्य फलं कर्मस्य समर्पणं करोतु इति तत्र किमपि कार्यम् अस्ति इति मन्ये भगिनी तत्र सन्धिकार्यं वा समासकार्यं सर्वम् अस्ति अत्र किन्तु तत् तत्र केवलं कर्मपदं नास्ति तत्र
सम्यक् महोदय
अस्तु किन्तु तत्र नो चेत् इति तत्र प्रथमविकल्पः तदपि न कर्तुं शक्नोषि चेत् द्वितीयविकल्पः इति खलु महोदय मयि चित्तं
भगवद्गीतायां तु मत्कर्म परमो भव अन्तिमं महोदय
अन्तिमं कर्म तस्य पूर्वम् अभ्यासं करोतु, अभ्यासं करोतु, प्राप्नुहि, तदपि न भवति चेत् कर्म इति. अस्तु, समीचीनं महोदय, धन्यवादः. धन्यवादः. अस्तु महोदय, रघुवीरानन्द महोदय, भवानेव पठतु अग्रे.
विषयध्यानं न करोतु, नो चेत् प्रणश्यति.
तत्र
वक्तव्यं वा महोदय? तत्र करोतु इति लोट्लकारः.
अपि विषयध्यानम् इत्युक्ते तत्र लौकिकविषयध्यानं. तत्र लौकिक लौकिकध्यानं करोति चेत् तत्र अदो गच्छति. तत्र
ध्यानं तु कर्तव्यमेव.
विषयध्यानं किन्तु तत्र तत्र सात्विकविषयध्यानम् इति. समीचीनं महोदय. भगवद्विषयध्यानं
तत्सन् कर्म कुरु, नो चेत् परमपदं न प्राप्नोषि.
असक्तः सन् कर्म कुरु इति,
सः एव भूत्वा
भूत्वा कर्म कुरु,
कार्यं कुरु,
नो चेत् परमपदं न प्राप्नोषि. समीचीनं महोदय.
बन्धनम् अहं कर्म न कुर्यां चेत् लोकाः उत्पीदेयुः. तद् भगवान् वदति महोदय, कोऽपि अन्यं
वक्तुं न शक्नोति.
यदि वदन्ति तत् अन्य विषयं. गृहे नास्मि चेत् किम् अभवत्?
सत्यं सत्यं. लोकाः
तत्रापि
कुर्यायुः इति तत्र प्रायश तत् अस्ति. लकारः वयं न कृतवन्तः. स्यात्
कुर्यां, कुर्यामपि कः लकारः?
कुर्यात्
कुर्यां, तदपि विधिलिङ्गे एव इति मन्ये.
कुर्याम् इति विधिलिङ्गलकार उत्तमपुरुषः अस्ति. कुर्यात् कुर्युः इति कुर्याम, कुर्या कुर्यां, कुर्याम इति बहुवचने, कुर्याम् इति एकवचने, कुर्याव कुर्याम इति.
उत्सीदेयुः
सीदति सीद तदपि विधिलिङ्गलकारः अस्ति खलु. उः जेर्जुस् उत्सीदेयुः इति
सीदति
इति अस्ति.
सीद् इत्युक्ते सिट् कम् बेक् टु दि अर्त् इत्युक्ते किं?
न न न न उत्सीदति अस्ति
नश्यति इति अर्थे मन्ये.
आं महोदय.
उत् योग
अग्रिमे अहं गच्छामि महोदय.
अस्तु महोदय.
सर्वोऽपि स्वधर्मम् आचरेत्, नो चेत् श्रेयः श्रेयः न प्राप्नोति.
तत्र
तत्र सामान्यपदमेव आचरेत्, आचरेत् इति
विधिलिङ्गेव इति मन्ये महोदय.
विधिलिङ्गेव इति
तत्र केवलम् एकम् एकः अंशः वक्तव्यः इति मन्ये. तत्र स्वधर्मम् इति तत्र तदस्ति कर्मपदम् आचरेत् इति क्रियापदस्य, किन्तु प्राप्नोति इति क्रियापदस्य किं कर्मपदम्?
श्रेयः.
श्रेयः किन्तु श्रेयः इति तत्र सकारान्तपदम् इति मन्ये, श्रेयस् इति. अतः तत्र रूपं कर्मपदम् इव न दृश्यते. तत्र विसर्गः अस्ति किन्तु तत् अकारान्तपदं नास्ति. द्वितीयविभक्तिरूपमेव अस्ति.
प्रायः बहुवचनं महोदय श्रेयः.
न न न, अहं चिन्तयामि एकवचनमेव महोदय. श्रेयस् इति सकारान्तपदं, तत्र नपुंसकलिङ्ग वा अथवा पुल्लिङ्ग वा न जानामि, किन्तु सकारान्तपदम् इति मन्ये श्रेयस् इति. अतः तत्र कर्मपदमेव द्वितीयविभक्तिरूपमेव इति. नपुंसकलिङ्ग, नपुंसकलिङ्ग
द्वितीय भवति.
अतः तत्र एकवचने एकवचने एव महोदय एतत्.
एकवचने अस्तु, एकवचने श्रेयः, श्रेयसि, श्रेयान्ति, द्वितीय तावदेव.
महोदय श्रेयशब्दः अत्र विभक्ति प्रत्यय आप् मध्ये तु पुल्लिङ्ग सकारान्त इति
दृश्यते, तत् भिन्नमस्ति, एतत् श्रेयस्ति अस्ति,
तदेव अहं पश्यामि श्रेयः पुल्लिङ्गपदमिति तत्र
तदपि भिन्नम्
श्रेयांसौ श्रेयांसः पुल्लिङ्गसकारान्तपदम्
तत्र
द्वितीयविभक्ति महोदय श्रेयांसं श्रेयांसौ श्रेयसः
अतः एतत् सः तद् भिन्नम् अस्ति महोदय, यत्र अत्र तु प्राप्नोति इति क्रियापदस्य एतत् पदं श्रेयः कर्मपदम्
किं प्राप्नोति इति
प्रश्ने अतः श्रेयः इति द्वितीयान्तम् एव
परमपदं न प्राप्नोति इति
अतः तत्र यत् पदं प्रातिपदिकं तादृशः भवेत् यस्य द्वितीयाविभक्ति एकवचनरूपं श्रेयः इति अस्ति,
राज्यं
पुल्लिङ्गपदं नास्ति इति मन्ये महोदय,
नपुंसकलिङ्गे एव
नपुंसकलिङ्गे इति
नपुंसकलिङ्गे अपि अस्ति वा एतत्
मनांसि मनस् अस्ति खलु मनः मनसि मनांसि
श्रेयस् तथैव
श्रेयस् तदेव
ओ पुल्लिङ्गः श्रेयस् पदमस्ति नपुंसलिङ्ग अपि श्रेयस् पदमस्ति वा
पुल्लिङ्ग इदानीं दृष्टवान् न जानामि
अपि तादृश एव अहं चिन्तयामि महोदय तत्र तमस् तेजस् तपस् वचस् वायस् शिरस् वासस् तत्र अहं तत्र पुष्पादीक्षिता भगिन्याः पुस्तकं दृष्ट्वा अहं वदामि तत्र मनः अपि तत्र मनः इव तत्र अनेकाः अनेकानि पदानि सन्ति अतः एते
नपुंसकलिङ्गं महोदय
नपुंसकलिङ्गं
लिङ्गः किं महोदय
नपुंसकलिङ्गपदं
लिङ्गपदमपि मम
लिङ्गपदमपि नपुंसकलिङ्गपदमेव लिङ्गम् इति एव पुल्लिङ्गः इति न भवति पुल्लिङ्गम् एव किन्तु पुल्लिङ्गशब्दः इति
भवति विशेषनिज्ञा अस्ति पुल्लिङ्गशब्दः पुल्लिङ्गं पदं
पुल्लिङ्गपदं तत्र किन्तु लिङ्गम् इति
पुल्लिङ्गः शब्दाः इति मया दृष्टं
विशेषनिज्ञाति त्रिलिङ्गिकः चिन्तयामि
किन्तु किन्तु लिङ्गम् इति तत्पदं तु नपुंसकलिङ्गपदं
परन्तु महोदय तत् त्रिलिङ्गरूपम् अस्ति अस्ति वा अहं न जानामि
कस्य महोदय
लिङ्गमिति लिङ्गः अस्ति पुल्लिङ्गः अस्ति स्त्रीलिङ्गः एव भवति स्त्रीलिङ्ग अस्तु अत्र पदमपि शब्द
तत्र केचन तत्र मया एतत् श्रुतं महोदय तत्र केचन वदन्ति पुल्लिङ्गी इति पुल्लिङ्गी पदम् इति तत्र अस्मिन् पदे पुल्लिङ्गः पुल्लिङ्गम् अस्ति इति तत्र तत्र गुणम् इति तादृश अर्थे ते वदन्ति पुल्लिङ्गी पदम् इति तत्र इनि प्रत्ययः अतः प्रायशः स्त्रीलिङ्गिनी पदम् इति प्रायशः भवति न जानामि महोदय किन्तु लिङ्गं तु नपुंसकलिङ्गपदमेव अस्तु अग्रे रघुवीरानन्द महोदय
अन्तिमं महोदय अर्जुन त्वं धर्म्यं युद्धं कुर्युः कुर्याः नो चेत् पापमवाप्स्यसि
तत्र कुर्याः प्रायः
इति पदं महोदय
एतावत् वयं न कृतवन्तः तत् प्रायशः
महोदय तत्रापि तदपि अहं चिन्तयामि लोट्लकार अस्ति कुर्याः इति
त्वम् इति मध्यमपुरुषे
त्वं महोदय तत् मध्यपुरुषे लोट् लकारः
अस्ति वा? तत्र किं भवान् चिन्तयति?
सोरि महोदय, विधिलिङ्गलकारे अस्ति,
विधिलिङ्गकारे अपि आत्मनेपदि धातुः इति वा? तत्र करोति परस्मैपदीरूपम् अस्ति, कुरुते इति अस्ति खलु, एतत् कस्य
न महोदय? अहं चिन्तयामि कुर्याः, कुर्यात् कुर्याताम् कुर्युः इति खलु, अत्र कृ धातुः अस्ति, कुर्याः इति भवति, कुर्याः कुर्याताम् कुर्याता.
सर्वाणि रूपाणि अहं पश्यामि महोदय, विधिलिङ्गे
अस्तु, विधिलिङ्ग अस्तु,
मध्यम एक
विधिलिङ्ग परस्मैपदि कुर्याः,
आमामां परस्मैपदि, पर्यायं परस्मैपदि
मध्यम पुरुष
एकवचनम्
कुर्या.
तत्र यास् इति अस्ति, तत्र किमपि कार्यं विशिष्टकार्यमस्ति. अदन्त वयम् अदन्ताङ्गस्य एव पठितवन्तः, एतत् ऋकारान्तः अस्ति खलु, अतः भिन्नः अस्ति कुर्याः इति. कुर्यात् कुर्यातां
न, किन्तु तत्र कृ धातुः खलु?
आं महोदय, कृ धातुः अस्ति,
कृदातु
तनादि, तनादिगणीय उ तनादिगणीय तनादिगणीय अस्ति खलु महोदय?
न न, कृ धातु तु भू
तनादिगणी अस्ति,
करणे तत्र
ऊ भवति, तनादिगणी अस्ति एतत्,
अष्टगणः
सत्यं, तनादिगणे अस्तु, ऊ इति अस्ति खलु महोदय, अतः किमपि भिन्नकार्यमस्ति अहं चिन्तयामि. उरु उरु इति भवति,
अस्तु अस्तु अस्तु, सत्यं सत्यं सत्यं, अस्तु
तर्हि कुर् भवति खलु सर्वत्र, उ इति भवति खलु, उ इति विकरणप्रत्ययः,
सत्यं सत्यं,
उकारः अतः एव,
सत्यं सत्यं महोदय, अस्ति धन्यवादः, अस्तु तदपि विधिलिङ्गे एव अस्तु. पापम् अवाप्स्यसि, पापम् अवाप्स्यसि, अस्तु प्राप्नोषि, अस्तु अस्तु, अत्र अर्जुन इति सम्बोधनम् अस्तु. तर्हि अतः तत्र चेत् नो चेत् समापितवन्तः, इदानीम् अग्रे गच्छामः. एषा कथा मह्यं बहु रोचते.
एकः प्रश्नः महोदय.
हा वदतु भगिनि.
सर्वेषु वाक्येषु अत्र दीर्घवाक्येषु वाक्यानि
सन्ति,
वाक्यानि सन्ति, किन्तु यदि अहम् इति वदामि धर्मयुद्धे विजयः भवति चेत् राज्यं प्राप्नोति, तत्तु सत्यं वाक्यं न महोदय?
भवति चेत् विजयः भवति चेत् राज्यं प्राप्नोति, सत्यं भगिनि. अत्र तत्र किं, तत्र विकल्पः दत्तमस्ति, तत्र मार्गद्वयमस्ति, अतः एकः एकं मार्गं मध्ये अग्रे गच्छामः तावत्.
अत्र अत्र न न महोदय, अत्र अहं चिन्तयामि, अत्र फलं फलं फलमस्ति, यदि विजयी भवति चेत् राज्यं प्राप्नोति, यदि मरिष्यति चेत् विजयं न प्राप्नोति चेत् पराजयः न भवति,
भवति चेत् वीरमरणं
कृत्वा वीरमरणं प्राप्नोति, स्वर्गं प्राप्नोति,
स्वर्गं प्राप्नोति, क्षत्रियधर्मः वीरमरणम् इति कृत्वा. अस्तु,
सत्यं वयमस्ति,
सत्यं
तादृश अर्थे अस्ति,
सत्यं सत्यं महोदय, समीचीनम्. अस्तु गीताञ्जलिभगिनी, अन्यप्रश्नः?
आम् महोदय, अवर्षणम् इत्युक्ते किं महोदय?
तत्र फेमिनिटि
तत्पुरुष, अवर्ष नवर्षण अवर्षण तत्पुरुषसमासः
महोदय, ड्रौट् एव,
ड्रौट् ड्रौट् तादृश, ड्रौट् ड्रौट्
वर्षति वर्षणम् इति अस्ति,
वर्षणं न भवति, वृष्टिः न भवति इति, अनावृष्टिः अपि तदपि वक्तुं शक्नुमः.
गमनं क्रयणम् इति कदा, वर्षणं
वर्षणं तत्र तद् न भवति इति कृत्वा अवर्षणम्
अवर्षणं नावर्षणम् अवर्षणम्
अवर्षणम्.
अस्तु धन्यवादः महोदय.
अस्तु अस्तु तर्हि अग्रे गच्छामः. अत्र अन्तिमा कथा अस्ति अस्मिन् भागे, तत्र सप्तविभक्तया इति. तत्र अस्तु, प्रथमपुटे तत्र किं कुर्मः? तत्र शिष्याः सन्ति, गुरुः अस्ति, प्रथमः, द्वितीयः, तृतीयः, चतुर्थः, पञ्चमः, षष्ठः अपि अस्ति. अस्तु, तत्र किं कुर्मः? एकः गुरुः भवेत्, शिष्याः तत्र किं कुर्मः?
गुरुः अस्ति रघुवीरानन्दस्वामी अस्ति.
अस्तु, हा, सः गुरुः भवति. अपि तत्र मध्ये मध्ये तत्र
आवरणे
न न न न न न न न हा मध्ये मध्ये तत्र आवरणे किञ्चित् दत्तमस्ति, तत् अहं पठामि. तत्र नरेटर् इति, हा, तत्र नेत्र उन्मील्य इति, तत्र स्पोक्स् पर्सन् सः वदति. तत्र एतत् नाटकम् अस्ति. अस्तु, तत्र आवरणे दत्तमस्ति, तद् अहं पठामि. किन्तु तदनन्तरं तत्र शिष्याः, तत्र प्रथमः, द्वितीयः, तृतीयः, पञ्चमः, तत्र किं, तत्र एकमेकं पठन्तु भवन्तः. अस्तु, तत्र
वदतु महोदय, कोऽपि प्रथमः, कोऽपि
द्वितीयः,
तदनन्तरं
सर्वे वदन्तु. अस्तु, सूर्यकुमारी भगिनी नमस्कारः, न दृष्टवान् एतावत्, क्षम्यतां. नमस्कारः, स्वागतं.
शीतल भगिनी नमस्कारः, स्वागतं.
चिन्ता मास्तु भगिनी. नमस्कारः भगिनी. तत्र पेज् 192 मध्ये स्मः, इदानीमेव आरम्भं कुर्वन् स्मः. अस्तु, तत्र शीतल भगिनी आरम्भं करोति वा, तत्र पठति वा? तत्र
महोदय वदतु, महोदय कः किं वदति इति.
अस्तु, तत्र भवान् गुरुः, अपि शिष्याः तत्र. अस्तु, तत्र शिष्याः
सर्वे कदा 1 2 3 इति
प्रथमा तु सर्वे वक्तुं शक्नोति.
शिष्याः सर्वे वदन्ति, तदनन्तरं रघुपतिमहोदय भवान् प्रथमः, गीताञ्जलि भगिनी द्वितीयः, नरेश महोदय तृतीयः, सूर्यकुमारी भगिनी चतुर्थः, अपि पञ्चमः
शीतल
भगिनी, तदनन्तरं पुनः षष्ठः अस्ति चेत् रघुपतिमहोदय, प्रथमाय षष्ठी, अपि रघुपतिमहोदय. अस्तु अस्तु, इदानीं शीतल भगिनी आरम्भं करोतु तत्र सप्तविभक्तयः इति. शीतल भगिनी,
दशमस्त्वमसि उच्चैः पठत प्रथमं दृश्यं सप्तविभक्तया.
एतत् नाटकमस्ति, नाटकमस्ति, तत्र नाटकस्य बेक्ग्रौण्ड् इदानीं वदतु भूमिका.
कस्यचित् गुरोः आश्रमः, गुरुः उन्नतस्थाने उपविश्य ध्यानमग्न अस्ति, दशशिष्याः भविष्यन्ति.
अस्तु, सर्वे वदन्ति इदानीं, हा, आचार्य नमः. नेत्रे उन्मील्य, हा
महोदय, त्रिशिष्याः सर्वे आगताः किम्?
आं गुरु, वयं सर्वेपि आगताः.
समीचीनं, शिष्याः अद्य अनध्ययनम् अस्ति, भवतां पाठः नास्ति.
सन्तोषेण.
सत्यं वा?
आम्, परन्तु अन्यदेकं कार्यं सूचयामि.
किं तत् गुरु?
वदामि, सावधानं शृण्वन्तु. पार्श्वस्थे ग्रामे अद्य रथोत्सवः प्रचलति, भवन्तः सर्वे तत्र गत्वा रथोत्सवं दृष्ट्वा सायङ्काले प्रत्यागच्छन्तु.
सन्तोषेण.
महोदय,
महान् सन्तोषः, वयं सर्वे इदानीम् एव गच्छामः.
सर्वे सर्वे गच्छामः,
परन्तु बहु जागरूकतया गन्तव्यं, यतः अहं भवतां बुद्धिमतां जानामि.
वयं बहु जागरूकाः भवामः गुरो.
भवतु, सर्वे मिलित्वा एव गच्छन्तु.
तथा एव अस्तु गुरु.
स्वागतं
महोदय. तथापि एतेषां मन्दमतीनां विषये इतोपि मम विश्वासः नास्ति, अतः एवं करोमि महोदय.
प्रकाशः तस्मिन् प्रकाशः.
सर्वे पङ्क्तिशः तिष्ठन्तु.
शिष्याः तिष्ठन्ति, गुरुः गणयति.
एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्त अष्ट नव दश. पश्यन्तु, भवन्तः दशजनाः सन्ति. मध्ये मध्ये परिशीलयन्तु, सर्वे आगताः वा, कोऽपि च्युतः वा इति.
अवश्यं परिशीलयामः गुरु, वयं गच्छामः.
शुभं भवतु.
गुरुः गच्छति, शिष्याः सन्तोषेण नृत्यन्तः अन्यस्यां दिशि गच्छन्ति इति. इदानीं तत्र प्रथमदृश्यं, प्रथमं दृश्यं तत्र सर्वं प्रायशः समीचीनमेव अस्ति इति मन्ये. तत्र किं, तत्र च्युतः, च्युतः इत्युक्ते किमिति कोऽपि वदति वा? च्युतः इत्युक्ते ल्युप्तः. अधो भागे महोदय, तत्र गुरुः गणनं करोति, तदनन्तरं वदति, पश्यन्तु भवन्तः दशजनाः सन्ति, सर्वे आगतः वा, कोऽपि मिस्सिङ्ग् मिस्सिङ्ग् इति च्युतः ल्युप्तः वा इति. तत्र अवश्य परिशीलयामः गुरु, वयं गच्छामः. तत्र अपि मन्दमती मतीनां, तत्र मन्दमती इति, मन्दमती मतीनां इति, तत् तत्र बुद्धिमान् इति तादृशरूपं मन्दम मन्दमती इति. बुद्धिमत्ताम् अपि तदपि क्षम्यतां महोदय, मन्दमतिः तत्र स्त्रीलिङ्ग स्त्रीलिङ्गरू तत्र मतीनाम् इति तत् स्त्रीलिङ्गपदमेव तत्र. अपि बुद्धिमतामपि तादृश एव. अस्तु, अतः तत्र प्रायशः अत्र किमपि नृत्यन्तः इति तत्र किं शत्रन्तरूपं,
शत्रन्तरूपं बहुवचनं
अन्यस्यां दिशि गच्छन्ति. अस्तु, अतः प्रथमदृश्यं वदतु भगिनि.
सर्वे आगत
वदतु भगिनि, न अवगच्छामि.
एकं द्वे त्रीणि चत्वारि लैन् मध्ये
दश दश दशशिष्याः सन्ति.
सर्वे सर्वे
सर्वे इदानीं गच्छन्ति, सर्वे दशजनाः अपि गच्छन्ति इदानीं. सत्यं, सर्वे गच्छन्ति इदानीं. केवलं गुरुः तत्र अस्ति, आश्रमे अस्ति. शिष्याः सर्वे गतवन्तः. इदानीं द्वितीयं दृश्यं, तत्रापि प्रथमः अपि इदानीं तत्रापि शिष्याः आवश्यकः, तदनन्तरं गुरुः इदानीं नास्ति, तत्र पथिकः अपि निरूपकः इति आवश्यकमस्ति. अस्तु, तत्र रघुवीरानन्दमहोदय, भवान् एव पथिकः अपि निरूपकः, अग्रे तद्भवति अन्तिमभागे, पथिकः निरूपकः
द्वितीयभागे महोदय.
द्वितीयदृश्ये, द्वितीयं दृश्ये, प्रथमपुटे तत्र पेज् 193 मध्ये नास्ति, किन्तु पेज् 194 मध्ये तत्र पथिकः, तदनन्तरं निरूपकः.
निरूपकः,
अस्तु. अतः इदानीं तत्र प्रथमः चतुर्थः पञ्चमः यावत्, अतः तत्र पुनः एतत् तदेव कुर्मः रघुपतिमहोदय, भवान् प्रथमः, गीताञ्जलि भगिनी द्वितीया, नरेश महोदय तृतीया, सूर्यकुमारी भगिनी चतुर्था, अपि शीतल भगिनी पञ्च, तदनन्तरं षष्ठः अस्ति चेत् पुनः रघुपतिमहोदय इति. अस्तु, तत्र प्रथमः रघुपतिमहोदय भवानेव द्वितीयं दृश्यं.
प्रथम मन्दमति, भो सर्वे शीघ्रम् आगच्छन्तु, नो चेत् विलम्बः भवति. सर्वे मन्दमतया आगता.
इदानीं गीताञ्जलि भगिनि.
वयं सर्वे अपि स्मः किल?
स्मः, कः संशयः? इदानीं नरेश महोदय.
परन्तु नद्यानि वयम् इदानीमेव एकां नदीं तीर्त्वा अग्रे आगतवन्तः, तत् सर्वे अपि नदीं तीर्णवन्तः वा इति मम संशयः.
गीताञ्जलि भगिनि.
ओ, मामपि सः,
ममापि, मम अपि,
ममापि सः एव संशयः.
अतः एव गुरुः उक्तवान् अस्ति, मध्ये मध्ये सर्वे सन्ति वा इति परिशीलयन्तु इति.
सत्यं, दशजनाः अपि स्मः वा इति इदानीम् एव परिशीलयामः.
रघुपतिमहोदय.
मित्राणि, भवन्तः सर्वे पङ्क्तिरूपेण तिष्ठन्तु, अहं गणयामि. सर्वे तिष्ठन्ति, इदानीं गणयामि. एकं, द्वे, त्रीणि, चत्वारि, पञ्च, षट्, सप्त, अष्ट, नव. सत्यं खलु, दशमा कुत्र गतः?
गीताञ्जलि भगिनि.
भोः, भवान् गणनां सम्यक् न जानाति, आगच्छतु, अहं गणयामि. एकं, द्वे, त्रीणि, चत्वारि, पञ्च, षट्, सप्त, अष्ट, नव. सत्यमेव खलु, नवजनाः एव सन्ति.
तर्हि दशमः कः? सः कुत्र गतः?
अत्र एव स्यात्, एतेषु एव स्यात्, एतेषु दशमः कः? दशमः कः?
इदानीं पतिकः
महोदय
प्रविश्य.
महोदय, भोः, कः कोलाहलः? का समस्या भवताम्?
शीतल भगिनी.
भोः, गुरोः आदेशानुसार वयं दश जनाः रथोत्सवार्थं प्रस्थिताः. इदानीं पश्यामः, नवजना एव स्मः, हा सन्त उच्चैः रोदिति.
महोदय,
स्वागतं पतिकः.
महोदय, कथम् एवं वदति एषः?
मनसा एव सर्वान् गणयति. प्रकाशः.
भोः, सर्वे सन्ति खलु?
नहि, पश्यतु, अहमेव गणयित्वा दर्शयामि. एकं, द्वे, त्रीणि, चत्वारि, पञ्च, षट्, सप्त, अष्ट, नव. पश्यतु, नवजनाः एव स्मः, दशमः कुत्र गतः?
महोदय,
हसन् पतिक, हसन्
मित्र, भवान् एव दशमः, यः दशमस्य अन्वेषणं करोति.
सर्वे निष्कम्पाः तिष्ठन्ति, निरूपकः नेपथ्ये वदति. वदतु महोदय इदानीं.
मित्राणि, एषः एव लोकस्य व्यवहारः, एवमेव वयम् आत्मानः अन्वेषणं कुर्वन्तः भवामः. विषयः, देहः, इन्द्रियाणि, प्राणाः, मनः, बुद्धिः, अहङ्कारः, चित्तम्, अज्ञानम् इत्येतेषु अन्यतमः एव आत्मा स्यात् इति चिन्तयन्तः वयं तत्र एव तस्य अन्वेषणं कुर्मः. परन्तु वयं न जानीमः यत् यः अन्वेषणं करोति स एव आत्मा, स एवं स एव परमं ब्रह्म. महोदय अन्तिमं भवतः एव
बहु समीचीनम् अस्ति खलु एषा कथा. तत्र सरला कथा अस्ति किन्तु
सिद्धान्तः अस्ति.
हा महान्त अन्तिमपरिच्छेदे तस्य परमं ब्रह्म इति तावत् पर्यन्तं गच्छति. हा आरम्भे वयं चिन्तयामः एषा एतां कथां तु जानामि इति, किन्तु यः सिद्धान्तः अन्तिमभागे अस्ति तत्तु तादृशचिन्तनं तत् मनसि स्थापनीयम् अस्ति.
अहं न जानीमः महोदय मन्दमतया
वयं सर्वे एतादृश एव स्मः खलु. सत्यं महोदय. हा अस्तु, अतः तत्र कथायाः विषयः तत्र अभ्यासरूपेण इदानीं कुर्मः, किन्तु तत्र किं किम् अस्ति सप्तविभक्तयः सर्वं कुर्मः, किन्तु एकवारं तत्र अन्तिमपरिच्छेदः एकवारं पुनः पठामः. तत्र एषः एव लोकस्य व्यवहारः एवमेव. एवमेव इत्युक्ते तत्र किं, यथा तत्र दशमः सः गणयति किन्तु सः स्वं न गणयति इति कृत्वा तत्र वयमपि आत्मनः. आत्मनः इति विभक्ति का तत्र षष्टि. आत्मनः अन्वेषणं कुर्वन्तः भवामः. तत्र विषयः देहः इन्द्रियाणि प्राणाः मनः बुद्धिः अहङ्कारः चित्तम् अज्ञानम् इत्येतेषु इति एतेषु एतादृशानि एतादृशाः पदार्थाः तेषु अन्यतमः. अन्यतमः इत्युक्ते तत्र समूहे पदार्थानां समूहे एकः अन्यतमः, वन् आफ् देम् इति एव आत्मा स्यात्. आत्मा अपि एतादृशः पदार्थेषु एकः पदार्थः इति चिन्तनं कृत्वा अथवा चिन्तनं कुर्वन् चिन्तयन्तः वयं तत्र एव तस्य अन्वेषणं कुर्मः. अस्तु, आत्मादेहविषयः अस्ति अथवा आत्मादेहः अस्ति, अस्तु आत्मा इन्द्रियाणि अस्ति अथवा आत्मा प्राणः अस्ति प्राणाः सन्ति, तादृशचिन्तनं मनसि अज्ञानेन चिन्तनं कृत्वा तत्र एव अन्वेषणं कुर्मः. परन्तु वयं न जानीमः यत् यः अन्वेषणं करोति सः एव आत्मा, सः एव परमं ब्रह्म इति.
शङ्कराचार्यस्य अस्ति खलु महोदय मनोबुद्धि अहङ्कार
नेत्रे वदतु महोदय, तत्र स्मरामि
मनोबुद्ध्यहङ्कारे
न च श्रोता न च
व्योम न च व्योम भूमि न तेजो न वायु चिदानन्दरूपं निर्वाणशतकं
निर्वाणशतकं शतकं
षट्कं
षट्कं
षट् एव अस्ति
शतकं तु
षट् मन्त्राणि श्लोकानि
अस्तु. अतः तत्र बहु समीचीनम् अस्ति इति अत्र किं वक्तव्यं. तत्र हा तत्र निरूपकः नेपथ्ये वदति, तत्र नेपथ्ये इति नेपथ्यम् इति अस्ति पदं. तत्र तस्य सप्तमी नेपथ्यम् इत्युक्ते बेक्ग्रौण्ड् अथवा बेक् स्टेज्. निरूपकः अस्ति ओब्सर्वर् अथवा वाय्स्. पतिकः इति सः कः पतिकः,
यः मार्गे गच्छति सः पतिः. पति इति मार्गः
पति हा पतिन् तत्र हा मार्गः यः मार्गे गच्छति, वे सैड् ट्रावेलर् अथवा रोड् सैड् ट्रावेलर् इति अर्थे. हा समीचीनं महोदय. अस्तु, इदानीं तत्र
महोदय क्षम्यता, मम किञ्चित् गन्तव्यम् इदानीं महोदय.
अस्तु महोदय, नमस्कारः, धन्यवादः. हा अस्तु, नमस्कारः. हा नमस्कारः, धन्यवादः. अस्तु, इदानीं तत्र अग्रे अस्माकं विषयः अस्ति तत्र सप्तविभक्तयः इति, तस्य विषये एव इदानीम् अभ्यासः भवति. तत्र कथायाम् अनेकानि पदानि सन्ति, तेषां विभक्ति का इति तस्य अन्यत् अन्या विभक्ति का इति तद् तादृश अभ्यासः इदानीम् अस्तु. तर्हि तत्र सूर्यकुमारी भगिनी अभ्यासं पठति वा तत्र पेज् 194 मध्ये.
हा महोदय, अभ्यासः निर्देशानुसारं रूपाणि परिवर्त्य यथोदाहरणं लिखत. पदानि विभक्तिः प्रथमान्तरूपाणि एव
प्रथमान्तरूपाणि एवं परिवर्तयत, तदपि लेखनीयं, तदनन्तरं परिवर्तनमपि लेखनीयम्. अतः कार्यद्वयम् अस्ति तत्र, कार्यत्रयं.
प्रथमान्तरूपाणि
पदं दत्तमस्ति, तस्य विभक्ति का इति वक्तव्यं, तदनन्तरं तस्य पदस्य प्रथमविभक्तिरूपं वक्तव्यं, तदनन्तरं मध्ये तत्र मित्राणि इति मध्ये तत्र प वि ब व इति अस्ति, तत्र किं तत्र प्रथमाविभक्ति बहुवचनरूपम् आवश्यकमस्ति. अस्तु भगिनि, इदानीं तत्र
उदाहरणानि आचार्यः सम्बोधन प्रथमा आचार्यः प्रथमाविभक्तिः एकवचनं,
षष्ठीविभक्ति एकवचनरूपम् अस्ति
आचार्यः
आचार्यस्य
आचार्यः
अत्र अकारान्त
प्रथम एकवचनम् आचार्यस्य षष्ठी एकवचनम्
एकवचनं समीचीनं भगिनि. इदानीं भवन्तः इति अस्ति,
भवन्तः
प्रथमाविभक्ति वचनं किं तत्र भवन्तः इति पदस्य,
भवन्तः प्रथमाविभक्ति भवान्
हा, किन्तु अत्र भवन्तः इति अस्ति, अतः वचनं किम् एकवचनं
बहुवचनं
बहुवचनं हा समीचीनं हा.
तत्र सप्तमी पञ्चमी भवत्सु सप्तमी बहुवचनं
हा सप्तमी बहुवचनं. तत्र गीतासोपने तत्र रूपाणि दत्तानि सन्ति खलु, भवत् तत्र भवान् भवन्तौ भवन्तः भवन्तं
भवन्तौ भवतः
भवद्भ्यां भवता
भवता भवद्भ्यां भवद्भिः भवते भवद्भ्यां भवद्भ्यः भवतः भवद्भ्यां भवद्भ्यः भवतः
भवतोः
भवता
भवताम् भवताम् इति मन्ये भवत्सु इति रूपं समीचीनं भगिनि हा धन्यवादः. अस्तु इदानीं मित्राणि इति
मित्राणि बहुवचनं मित्रम् एकवचनं
विभक्ति अपि तत्र
मित्राणि बहुवचनं प्रथमा विभक्ति प्रथममित्रं षष्ठीविभक्ति
न तत्र प वि एव षष्ठीविभक्ति इति नास्ति, प वि एव दत्तमस्ति,
मित्राभ्यां पञ्चमे
बहुवचनं बहुवचनम् अतः मित्रात् इति एकवचनरूपं
मित्रात् एकवचनं
मित्रेभ्यः रामेभ्यः इति तादृश मित्रेभ्यः अकारान्तपदं खलु
पञ्चमी षष्ठी एव
अग्रे भगिनी भगिनी
मन्दमतीनां
मती शब्दवत् अस्ति अतः विभक्ति का तत्र
बहुवचनं
विभक्ति
मतीनां मन्दं अन्धमति मन्दमतीनां षष्ठी बहुवचनं.
हा षष्ठी बहुवचनं समीचीनं भगिनि. हा अस्तु, इदानीं तत्र तृतीया बहुवचनं, तृतीया बहुवचनरूपं
मन्दमति मन्दमति मन्दमति
स्त्रीलिङ्गं मतिशब्दवत् मतिशब्द मत्या इति एकवचने किन्तु अत्र तत्र किम् आवश्यकमस्ति भगिनि? तत्र तृतीया विभक्ति बहुवचनरूपं मतिशब्दस्य रूपं किम् अस्ति? मतिः मती मतयः मतिं मती मतीः. तत्र पेज् 198 मध्ये दत्तमस्ति खलु भगिनि? तत्र इदानीं तृतीया विभक्तिरूपं मत्या मतिभ्या मतिभिः. अतः तत्र मन्दमतिभिः इति रूपम् अस्तु. हा चिन्ता मास्तु भगिनि. अस्तु, अन्यत् अपि करोतु. विषये इति
विषये सप्तमी विभक्ति
एकवचनं
प्रथमा विभक्ति सप्तमी एकवचनं.
प्रथमविभक्तिरूपं किम् अस्ति?
ओ विषये
न विषये इति सप्तमविभक्तिरूपं. प्रथमविभक्तिरूपं किम् अस्ति? विषयः
विषयः
विषयः. इदानीं द्वितीया विभक्ति एकवचनरूपं किम् अस्ति?
विषयं
विषयम् इति. तावदेव समीचीनं भगिनि. हा समीचीनम् अस्तु. अग्रे रघुपति महोदय.
आम् महोदय. विषये इति
तत् कृतम्. अग्रे वयम् इति.
वयम् इति बहुवचनमस्ति
अस्मत्शब्दस्य. इदानीं तत्र चतुर्थी विभक्ति बहुवचनरूपम् आवश्यकमस्ति.
अस्तु, मह्यं
तत् एक
सोरि अस्तु अस्तु मह्यम् अस्मभ्यं वा
अस्मभ्यम् अस्मभ्यम् अहम् आवां वयं माम् आवाम् अस्मान् मया आवाभ्याम् अस्माभिः
अस्माभिः
मे अथवा अस्मभ्यम्
अस्मभ्यम्
समीचीनं महोदय. अस्तु अग्रे एतम्
एतम् एतम् इति एषः इति अस्ति. अस्तु एषः
एषः
एष इति अतः एतम् 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 एतौ इति एतम् इति द्वितीया
एतम् इति विभक्तिका तत्र एतम् इति
द्वितीयविभक्ति एकवचनमस्ति. षष्ठीविभक्ति एकवचनम् सुलभः एतस्य
अग्रे महोदय मम इति
एक महोदय मम 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 इति अस्ति. षष्ठीविभक्ति अस्ति षष्ठीविभक्ति एकवचनमस्ति
एकवचनमस्ति. इदानीं सप्तमी एकवचनं
मयि
इति. समीचीनं महोदय. अग्रे जनाः
अग्रे जनाः इति जनाः इति जनः जनाः इति जनः इति अकारान्त पुल्लिङ्ग एकवचनमस्ति. जनाः बहुवचन एक प्रथमविभक्ति जनाः द्वितीय बहुवचनं जनान् इति
पुल्लिङ्ग अतः जनान् इति समीचीनं महोदय. अस्तु गीताञ्जलि भगिनी अग्रे.
बुद्धिमत्ताम् इत्युक्ते किं बुद्धि द्वितीया महोदय.
तत्र पश्यतु भगिनि तत्र एकनिमिषं तत्र पश्यामः. तत्र तत्र किं तत्र कुत्र अस्ति तत्र प्रथमपुटे तत्र कथायाः प्रथमपुटे जानामि बुद्धिमतां जानामि अतः जानामि इति क्रियापदस्य बुद्धिमताम् इति पदं किं भवति कर्मपदं हा बुद्धिमताम् इति बुद्धिमताम् एकवचनम् इति भवताम् इति तत्तु बहुवचनं किन्तु बुद्धिमताम् एकवचने एव अस्ति इति मन्ये भगिनि
किन्तु आगच्छति महोदय दीर्घ अन्ते
बुद्धिमतां तत्र तत्र पदं किम् इति कोऽपि वदति वा
महोदय बुद्धिमत् बुद्धिमत् एकवचनं वा
बुद्धिमतम् एकवचनं
बुद्धिमत्त अस्ति खलु मतं बुद्धिमत्तानाम् इति अस्ति मत्त इति अस्ति अतः तत्
मत्ता अस्ति
मत्त बुद्धि बुद्धिमान् अस्ति बुद्धिमत्ताः इति अतः षष्ठीभक्ति अहं चिन्तयामि महोदय षष्ठी बुद्धिमत्तां मत्तान् सारि बुद्धिमत् मत् मत्तान् इति
षष्ठी नास्ति जानामि इति अस्ति तस्य कर्म
मति मति
बुद्धिमत्ता इति आकारान्तस्त्रीलिङ्गपदम् इति प्रायशः
बुद्धिमत्ताम् इति भवति अस्तु
इति मन्ये भगिनि बुद्धिमत्ता इति
बुद्धिमत्ता
इति तत्र बुद्धिमान् यः अस्ति तस्य
पुल्लिङ्ग मत्तः इति पुल्लिङ्गे अस्ति मत्ता इति स्त्रीलिङ्गे भवितुमर्हति वा
हा बुद्धिमत्ता इति
बुद्धिमत्तः बुद्धिमत्ता बुद्धिमत्ता
तत्र बुद्धिमत्ता इत्युक्ते इन्टेलिजेन्स् इति महोदय तत्र सः बुद्धिमान् अस्ति तत्र बुद्धिमान् तस्य भावः अथवा गुणः इति अतः आकारान्तस्त्रीलिङ्गपदं भगिनि
महोदय स्थापत्य अस्ति अतः मत् अस्तु अस्तु स्थापत्य अस्ति अतः अतः लिङ्गत्रये अपि भवितुम् अर्हति मत् मत्
किन्तु अत्र बुद्धिमत्ता इति स्त्रीलिङ्गरूपम् इति मन्ये
स्त्रीलिङ्गरूपम्
अत्र तु स्त्रीलिङ्गरूपं
स्थान्तरूपं खलु
न चिन्तितवान् महोदय तत्र भावः इति तादृश तत्र
न तादृशरूपं भवति
किन्तु अत्र आकारान्त स्त्रीलिङ्ग पदं तत्र द्वितीया विभक्ति एकवचनरूपं दत्तमस्ति बुद्धिमतां बुद्धिमत्ताम् इति
द्वितीय एकवचनं महोदय
द्वितीयविभक्ति एकवचनरूपं बुद्धिमत्ताम् इति इदानीं तत्र प्रथमा विभक्ति
बुद्धिमत्ताः
बुद्धिमत्ताः
बुद्धिमत्ताः तावदेव समीचीनं इदानीम् अग्रे भगिनि पतिकः
बहुवचन बुद्धिमत्ताः
बुद्धिमत्ताः तत्र तकारस्य द्वित्वम् अस्ति इति मन्ये तत्र
बुद्धिना मत्तः वा बुद्ध्या मत्तः बुद्धिमत्ता
तत्र मत् इति
मद अस्ति खलु मत् अतः मत्तः यः
यस्मिन् बुद्धिः अस्ति इति तादृश
अधिकबुद्धिः अस्ति मत्तः इति मत्तः इत्युक्ते पागल् तादृशरूपम् अस्ति अधिक
अधिकबुद्धिः अस्तु भगिनि अग्रे पथिकः
पथिकः इति अकारान्त पुंलिङ्ग् इति मन्ये
सत्यम्
अत्र तु प्रथम विभक्ति एकवचन दत्तं पथिकः पथिकः पुनः आगच्छति, तदनन्तरं द्वितीयविभक्ति एकवचन पथिकम् इति.
हा पथिकं तावदेव, समीचीनं भगिनी. हा अस्तु, अग्रे गुरुः इति.
गुरुः इति अपि प्रथमविभक्ति एकवचनरूपं, गुरुः उकारान्त पुंलिङ्ग.
सत्यं सत्यं. हा इदानीं तृतीय एकवचनरूपं,
तृतीय गुरु गुरु गुरु
गुरु गुरुणा
गुरुणा गुरुणा इति
इति भवति. समीचीनं भगिनि. हा समीचीनं. हा अस्तु, अग्रे
अग्रे एतेषु तत्तु इति सप्तमी बहुवचनरूपम् अत्र अत्र एतेषु एतत् इति प्रथमविभक्ति एतत्
एतत् अथवा एषः किमपि अस्तु, किन्तु किम् आवश्यकं तत्र? चतुर्थी विभक्ति बहुवचनरूपं.
चतुर्थी इत्युक्ते
तत्तु समानमेव, तस्मै एतस्मै
एतस्मै एतस्माभ्याम्
एताभ्याम् एताभ्याम् एतेभ्यः इति. समीचीनं एतेभ्यः इति. हा अस्तु, अग्रे नरेश महोदय.
भवतां भवतां षष्टिविभक्ति बहुवचनं,
षष्टिविभक्ति बहुवचनं, समीचीनं महोदय. हा इदानीं तत्र पञ्चमीविभक्ति बहुवचनरूपं,
पञ्चमीविभक्ति बहुवचनं रूपं, पञ्चमी बहु भवद्भ्यः
समीचीनं. हा भवद्भ्यः समीचीनं. हा अग्रे
विश्वासः, विश्वासः प्रथमाविभक्ति एकवचनं,
षष्टिविभक्ति एकवचनरूपम् अस्ति.
षष्टिविभक्ति एकवचनं विश्वासस्य,
विश्वासस्य इति. हा समीचीनं. गुरोः इति,
गुरोः गुरोः पञ्चमीविभक्ति षष्टिविभक्ति.
हा समीचीनम्, एकवचनरूपम् उकारान्तपदम्
एकवचनरूपं.
सप्तमीविभक्ति,
सप्तमीविभक्ति एकवचनं रूपं गुरौ,
गुरौ इति अस्ति. समीचीनं महोदय, समीचीनम् अस्तु. अग्रिम अभ्यासः तमपि आरम्भं करोतु.
निर्देशानुसारं यथोदाहरणं वाक्यानि परिवर्तयत्. उदाहरणं, दश शिष्याः प्रविशन्ति लोट्लकारे. दश शिष्याः प्रविशन्तु,
तत्र प्रविशन्ति इति लट्लकारे अस्ति, इदानीं लोट्लकारे प्रविशन्तु इति.
प्रविशन्तु सर्वे आगताः किं लट्लकारे, सर्वे आगताः,
न न इदानीं लट्लकारः आवश्यकं,
लट्लकार सर्वे आगतु
आगच्छति किम् आगच्छन्ति किम्
आगच्छन्ति किम्
सर्वे इति तत्र बहुवचने अस्ति इति कृत्वा सर्वे आगच्छन्ति किम्
आगच्छन्ति किम्
तत्र आगतः इति किञ्चित् रूपं भिन्न भिन्नम् अस्ति, तत् विशेषणमस्ति खलु महोदय तत्र. अतः तत्र तत्र अन्यत् लकारः कथं कर्तुं शक्नुमः, किन्तु अपि तदनन्तरं वयं
वयम् इदानीं गच्छामः,
एकवचनरूपम् इदानीं
अहम् इदानीं गच्छामि
इति. समीचीनं महोदय अस्तु, अग्रे शीतल भगिनी.
आं महोदय, प्रयत्नं करोमि, परन्तु अन्यदेकं कार्यं सूचयामि.
हा इदानीं प्रथमपुरुषरूपं तस्य वाक्यस्य तत्र उत्तमपुरुषरूपम् अस्ति खलु भगिनि क्रियापदस्य.
आमां, परन्तु अन्यदेकं कार्यं
सूचयति सूचयति अथवा सूचयन्ति सूचयति इति प्रायशः. अस्तु अग्रे भगिनि.
सायंकाले प्रत्यागच्छन्तु. सायंकाले प्रत्यागच्छन्ति.
हा तावदेव समीचीनं भगिनि. हा इदानीम्
अन्वेषणं करोमि करोति. सत्यं पुरुष अन्वेषणं करोषि.
हा अन्तिमं
सज्जा भवन्ति.
सज्जाः भवन्तु इति तावदेव. हा इदानीम् अग्रे
एतानि अव्ययानि अव्ययपदानि उपयुज्य वाक्यानि रचयतु.
अपि उपयुज्य कोऽपि वाक्यं वक्तुं शक्नोषि वा नो चेत् अन्य कोऽपि शक्नोति वा भगिनि?
एकनिमिषं.
अस्तु अस्तु भगिनि अस्तु. हा
अपि गुरुः गच्छति अहमपि
अनुसरामि अनुसरामि. हा समीचीनं भगिनि. हा समीचीनम् अस्तु. अग्रे सूर्यकुमारी भगिनि.
हा महोदय अद्य अहं विलम्बेन आगामि.
आगतवती. हा आगतवती. आगामि इत्युक्ते आगामिकाले तत्र किम् एतावत् न न गतम्. आगामिकाले आगतवती. आगतवती आगतवती. हा समीचीनम्. आम् इति उपयुज्य
तद्वाक्यं सत्यं खलु.
आं तद्वाक्यं सत्यं खलु. आम् इति आं तद्वाक्यं तत् सत्यं खलु इति समीचीनं भगिनि. हा अस्तु. परन्तु इति
परन्तु
परन्तु सरलवाक्यमस्ति.
आं तद्वाक्यम् आं तद्वाक्यं सत्यमस्ति परन्तु सरलम् अस्ति. तदनन्तरं तत्र इति अस्तु. सर्वे मिलित्वा एव कुर्मः.
तत्र किञ्चित् क्लिष्टा वाक्यानि रचयन्तु.
हा अस्तु. एव एव इदानीम् एव इति
भवती एव करोतु.
हा भवती एव करोतु इदानीमेव करोतु.
न कर्तुं
महोदय.
हा न कर्तुं शक्नोमि. अस्तु. क्लेशः अस्ति खलु. कुत्र क्लेशः अस्ति इति. अस्तु अस्तु. इदानीं तत्र अग्रे गच्छामः. तत्र प्रायशः अङ्कैः सङ्ख्यां लिखत. अस्तु तत्र किमपि नास्ति. अस्तु अन्तिमम् एकः एव अभ्यासः अस्ति वा इदानीम्
अङ्कैः
अङ्कैः तत्र केवलं लेखनीयमस्ति सङ्ख्यां तत्र
लेखनविषये
सङ्ख्या इति तत्र पदं न किन्तु वस्तु सङ्ख्या प्रत्यक्षसङ्ख्या एव लेखनीयम्.
अहमपि न जानामि सम्यक्.
हा तत्र अभ्यासपुस्तकं तत्र अस्ति खलु महोदय. तत् दृष्ट्वा दृष्ट्वा एव
जानामि परन्तु लेखनसमये न कथं लेखनीयं तत्र भ्रमः भवति.
हा किन्तु अभ्यासपुस्तके तत् तत् निर्दिष्टं निर्दिष्टम् अस्ति इति मन्ये खलु. सत्यं. किन्तु इदानीं भवान् पाठयति खलु अभ्यासपुस्तकम् अतः बहु किमपि अभ्यासं भवति इदानीं
किञ्चित् भवति.
हा न केवलं तत्र महोदय यत् यद् वयं स्वयं पठामः तत्र बहु किमपि न तत्र मनसि गच्छति. किन्तु यदि साहे तदेव पुस्तकं यदि पाठयामः तदा हा वस्तु एतत् एतत् किम् एतत् किम् इति बहु किमपि पठामः तस्मिन् समये. अस्तु इदानीम् अन्तिमभागः तत्र एतत् कृत्वा तत्र गीतासोपनस्य प्रथमभागस्य समाप्तिः भवति. अस्तु तत्र कः एतदपि अस्तु गीताञ्जलि भगिनी करोति वा तत्र?
आम् महोदय, यतोदाहरणं क्रियापदं विभज्य वाक्यानि पुनः लिखत। उदाहरणं कार्यं सूचयामि, कार्यस्य सूचनां करोमि। अन्यरीत्या एव
तत्र क्रियापदस्य विभजनं कृत्वा करोमि इति क्रियापदं भवेत् नूतनवाक्ये।
नूतनक्रियापदम् आगच्छति।
नूतनक्रियापद सर्वदा करोमि इति एव भवति।
अस्तु महोदय, वयम् इदानीं गच्छामः। वयम् इदानीं
तत्र गच्छामः इति तस्य तत्र क्रिया अस्ति, गमनक्रिया।
गमनं
कुर्मः वयम् इदानीं गमनं कुर्मः।
तदनन्तरं गुरुः गणयति, गुरुः गणनां करोति,
गणनं करोति इति गणना अथवा गणनं किमस्ति कोऽपि जानाति वा तत्र?
गणनं करोति न जानामि
इति गणनम् इति चिन्तितवान्, किन्तु गणना अपि अस्ति भगिनि, गणना अपि अस्ति।
गणनां करोति इति सत्यं महोदय,
गणनं
किं महोदय
तत्र? गणनामेव स्त्रीलिङ्गे एव भगिनि,
गणना इति
गणना एव स्त्रीलिङ्गे, स्त्रीलिङ्गे एव अस्ति गणनां। गणनां करोति इति अस्तु।
कार्यं परिशीलयामः,
न तत्र कार्यस्य, तत्र कार्यं सूचयामि इति कार्यस्य
परिशीलनं
कुर्मः इति अस्तु। अन्तिमं दशमम् अन्वेषयति, अन्वेषयति तत्र दशमः अन्वेषयति इति न, दशमम् अन्वेषयति, अत्र कर्तृपदं न जानीमः, किन्तु दशमस्य
अन्वेषणं
करोति इति। तदनन्तरं निरूपकः नेपथ्ये कथयति, निरूपकः नेपथ्ये कथनं करोति इति अस्तु।
नेपथ्ये इत्युक्ते महोदय?
नेपथ्ये इति तत्र बेक्ग्रौण्ड् इति भगिनि, तत्र नाटकः अस्ति खलु, नेपथ्ये सप्तमीपक्ति नेपथ्यम् इति बेक्ग्रौण्ड् अथवा बेक् स्टेज् इति
व्यावहारिकभाषासु अस्ति तदेव नेपथ्ये
तत्र। तत्र
सः न दृश्यते
निरूपकः न दृश्यते, किन्तु केवलं तस्य वाणी भवति।
इन्चार्ज्
इति निरूपकः बिहैण्ड् द स्क्रीन् नरेटर् इति तादृश, किन्तु सः स्वयं नाटके नास्ति, सः केवलं तस्य वाणी, सः किं भवति किम् इति तत् सर्वं वदति सः तावदेव।
ते सर्वे महोदय ल्युडन्तरूपाणि सन्ति, परिशीलनं कथनं,
सत्यं सत्यं भगिनि, सत्यं तत्र सत्यं सत्यं भगिनि, एतत्तु तस्य निर्माणं कथं भवति इति तत्र वयं किं गीताप्रवेशे प्रथमभागे पश्यामः। प्रत्ययः तादृशप्रत्ययस्य विषयः तत्रैव अस्ति। अस्तु तर्हि, अतः तत्र बहु किमपि कृतं, तत्र अभिनन्दनानि सर्वे, प्रथमभागं समापितवन्तः इदानीं।
अग्रिमसप्ताहे द्वितीयभाग
तत् कर्तुं शक्नुमः, किन्तु तत्र किञ्चित् तस्य पूर्वं किञ्चित् करणीयम् अस्ति इति मन्ये महोदय, तत् कुर्मः, किन्तु यथा तत् तस्य आरम्भः भवति तत्र अस्मा किञ्चित् अपेक्षितमस्ति तत्र अस्माभिः. किम् इत्युक्ते तत्र द्वितीयभागे किं भवति, प्रथमभागे अस्ति अजन्तपदानां विभक्तयः, केवलं तत्र अकारान्त इकारान्त इति, किन्तु द्वितीयभागे हलन्तपदानां विभक्तयः अपि ये लकाराः न कृतवन्तः. अत्र वयं किं किं कृतवन्तः, तत्र लट्लकारः, लोट्लकारः, लृट्लकारः अपि अन्यलकारः कृतवन्तः खलु तत्र. न न न अत्र अत्र अस्मिन् पुस्तके वयं
लङ्लकारः
अपि लृट्लकारः कृतवन्तः. किन्तु द्वितीयभागे विधिलिङ्ग् अपि कुर्मः, आशीर्लिङ्ग् तद् कुर्मः. तदनन्तरं किं तत्र लकारस्य अपि तद् एकः अपि तत्र अन्यत् किं भवति तत्र
कृदन्त अस्ति वा,
कृदन्त इति
अन्य 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 कृदन्तरूपाणि
न महोदय तत्र द्वितीयभागे तत्र किं किम् अस्ति एकवारं दृष्ट्वा वदामि. तत्र प्रथमतया तत्र हलन्तशब्दानाम् अस्ति, तदनन्तरं विशेषणविशेषभावः अस्ति, सङ्ख्यासु लिङ्गभेदः किमस्ति इति, पूर्णप्रत्ययान्तः अपि, आत्मनेपदे पदिनः दातवः तेषां लृट्लकारः, विधिलिङ्लकारः, लिङ्लकारस्य प्रयोगः, कर्मणि कर्मणि प्रयोगः, भावे प्रयोगः,
लुङ्लकारस्य अस्ति वा, लुङ्गु
लृङ्लकारः, तदनन्तरं कर्मणि भावे प्रयोगः, तव्यतनीयत् प्रत्ययौ, शत्रुप्रत्ययानां प्रयोगः, शानच् प्रत्ययानां तेषां प्रयोगः, तावदेव अस्ति. किन्तु तत्र यदि द्वितीयभागं पठामः तत्र तस्मिन् समये वयम् अवगच्छामः अजन्तपदानां विभक्तिरूपं सरलानि सन्ति इति. हलन्तरूप हलन्तपदानां विभक्तिरूपं किञ्चित् तत्र किञ्चित् क्लेशः अस्ति एव, किन्तु
पठितवन्तः खलु महोदय भवति इति.
किन्तु तत्र सरित् शब्दः अस्ति, सुहृद् शब्दः अस्ति, एकं स्त्रीलिङ्गे अस्ति, एकं पुल्लिङ्गे अस्ति इति. अतः तत्र प्रायशः तत्र स्वरूप महोदयस्य करपत्रं यदस्ति तत्र हलन्तपदानमपि एकं करपत्रम् अस्ति, तत्र यदि वयं किञ्चित् तत्र कण्ठस्थीकरणम् अस्माकं भवति चेत् सुलभः भवति इति मन्ये. किन्तु करणीयमिति न वदामि, यदि कुर्वन्ति चेत् किञ्चित् सुलभः भवति इति. किन्तु अग्रिमे सप्ताहात् अग्रिमे सप्ताहे एतत् आरम्भं कर्तुं शक्नुमः द्वितीयभागः.
महोदय बुधवासरस्य तदेव वा, एतदेव वा बुधवासरस्य एषः वर्गः कदा अस्य कदा आरम्भः अभवत्
एषः वर्गः महोदय? तत्र अहम् एतं वर्गं तत्र पूर्वमेव चालितवान् आसन् तत्र, किन्तु तदनन्तरं स्वरूप महोदय अत्र संस्कृत 2013 मध्ये तत्र तस्य पुनर् अनौन्स्मेण्ट् कृतवान्. तदनन्तरम् अनेकाः केचन जनाः आगताः, किन्तु तत्र आरम्भतया केवलं यत् तत्र किं तत्र बुधवासरे वा मङ्गलवासरे वर्गः, तत्र तु आरम्भतः वयं कृतवन्तः सर्वम्. किन्तु एषः पूर्वं किञ्चित् पूर्वं पूर्वात् एव आसीत् महोदय. अत्र अतः तत्र अत्र समापितवन्तः, किन्तु मङ्गलवासरे बुधवासरवर्गे तत्र बहु किमपि अस्ति करणीयं. तत्र मङ्गलवासरे पेज् 135 मध्ये स्मः तत्र इति मन्ये 135-140 मध्ये.
महोदय बुधवासरे कति समये महोदय?
बुधवासरे न भगिनि, अमेरिकादेशे मध्ये तु मङ्गलवासरे, किन्तु भारतदेशे बुधवासरे. यः यं वर्गं भवती आगच्छति सः एव वर्गः. हा केवलं वर्गद्वयमेव अस्ति मम, तावदेव.
अहं चिन्तितवान् एकः वर्ग एव, तत्र भिन्नभिन्न अध्यायानि वयं पठन्तः स्मः, अध्यायाः वयं पठन्तः स्मः इति अहं चिन्तितवान्, अहं न जानामि.
हा किन्तु महोदय भवान् तु वर्गद्वयम् आगच्छति खलु?
आमाम् आम् महोदय आमाम्.
अतः तत्र अतः अत्र तु इदानीं समापितवन्तः प्रथमभाग. अत्र पादः एकपादः अवशिष्टः अस्ति तत्र प्रथमभागस्य.
अस्ति परन्तु यदा पठेमः तदा अवगच्छामः कुत्र कुत्र अस्माकं ज्ञानं नास्ति इति.
सत्यं महोदय, अपि तत्र एतदेव तत्र एषः एव विषयः अत्र, तत्र ज्ञानं अनेकरीत्या प्राप्नुमः. एकमस्ति तत्र पदस्य निर्माणं कथं भवति इति एकं, तत् तदपि आवश्यकम्. अन्यत् अस्ति तत्र यद्यद् यथा वयं पठितवन्तः, यत् पठामः तस्य बहुवारं तद् वक्तव्यं, नो चेत् तस्य विस्मरणं भवति इति. तत्र लकारस्य वा विभक्तेः तत् तेषां बहुवारं वक्तव्यं, नो चेत् तत् मनसि न तिष्ठति. अतः तत्र वर्गद्वयमस्ति इति कारणात् किञ्चित् वदामि, नो चेत् तदपि न
स्मरणीयं.
सत्यं सत्यं, तत्र केवलं थियरि इति एव ज्ञात्वा अग्रे गन्तुं शक्नुमः तत्र.
परन्तु अत्र आवश्यकं कथं तत्र
अत्र तत्र वक्तव्यमस्ति, रूपं रूपस्य ज्ञानम् आवश्यकम्. अतः तत्र एतद् एतस्य पाठनेन मम तु बहु लाभः अस्ति.
न एतद् बहु लाभाय अस्ति महोदय, तत् तत् अस्ति, तत् इञ्जिनियरिङ्ग् अस्ति, तस्य पठनेन अस्माकं व्यवहार संस्कृतव्यवहारज्ञानं न वर्धते. वर्गे भवति किञ्चित् वयं यदा वदामः तत्र अस्माकं सम्भाषणसामर्थ्यं वर्धते, परन्तु अत्र व्यवहार एव खलु सम्भाषणम्.
अतः एव अहं बहुवारं वदामि, अस्तु साधारणरूपस्य अभ्यासम् अत्र कुर्मः, तत् तस्य बहुवारं प्रयोगः भवति चेत् साधारणरूपं स्थापितं भवति अस्माकं मनसि. अतः तत्र एतद् अहं स्वरूप महोदयेन एव ज्ञातवान्, सः यदा वर्गं चालितवान् अत्र, सः एतदेव अस्तु एतत् पदं बहु विशेषपदम् अस्ति, तस्य एतद् निर्माणं भवति, किन्तु इदानीं तद् मास्तु, साधारणरूपं तस्य बहुवारं अभ्यासं करोतु इति एव सः बहुवारम् उक्तवान्.
सम्यक्.
अतः सः अपि उक्तवान् तत्र गीता संस्कृतभारत्याः तत्र शिबिरम् आसीत् तत्र देहलीनगरे मध्ये बहुवर्षं पूर्वं, सः उक्तवान् तत्र गत्वा तत्र प्रतिदिनं तत्र प्रायशः सप्ताह मासत्रयं चतुर्थं वा किमपि, किन्तु प्रतिदिनं सरलवाक्येन वक्तव्यं वक्तव्यं वक्तव्यं, सर्वं संस्कृतेन वक्तव्यं, तदनन्तरं बहु अभ्यासं जातम् इति सः उक्तवान्. अतः तत्र सरलवाक्यस्य बहुवारं तत्र विना चिन्ता तत् बहिः आगच्छति चेत् बहु लाभः. यथा वयम् आङ्ग्लभाषायां वदामः वक्तुं शक्नुमः, तादृश अपि संस्कृतेन तादृशवचनं बहिः आगच्छेत् इति.
इति
अस्तु तर्हि अतः तत्र अग्रिम वासरे वयं गीतासोपनस्य
मह्यं रोचते भवतः कक्षा महोदय धन्यवादः
सर्वे छात्राः उत्तमः सन्ति चेत् वर्गः अपि उत्तमः एव भवति भगिनि न तादृश नास्ति उत्तमः छात्रः ये तत्र यतः छात्राः तथा वर्गः
अहमपि तदेव अहम् उक्तवान् आसीत् अन्य एक पृष्टवती आसीत् मह्यं निरञ्जनमहोदयस्य कक्षा बहु रोचते इति अहमपि अस्ति तत् अतः सम्यक् भवति अन्यकक्षा तु तादृश अस्माकं स्वातन्त्र्यं नास्ति अत्र
वयं सर्वे छात्राः स्मः महोदय तत्र अतः तत्र यज्जानीमः तत्र सहकारं कृत्वा अग्रे गच्छामः
तदेव
नो चेत् किं तद् बहु क्लेशः भवति यज्जानीमः तद् वदामः यद् न जानीमः वदामः अस्तु न जानामि किन्तु एतत्तु समुद्रमेव विशालम् अस्ति तत्र जन्म जन्मान्तरम् अपि भवति चेदपि एतस्य किञ्चित् एव
परिसमाप्ति न भवति
अतः अस्तु तर्हि अन्य कोऽपि किमपि वक्तुम् इच्छति चेत् वदन्तु अतः
अग्रिमकक्षा द्वितीया
द्वितीया भागः तत्र आरम्भतया तत्र उपपदविभक्तयः इति विषयः अस्तु तर्हि
एतत् बिल्डिङ्ग् ब्लाक्स् आसीत्
सत्यं महोदय धन्यवादः भगिनी सूर्यकुमारी
धन्यवादः
भगिनी नमस्कारः शीतल भगिनी प्रश्नः अस्ति वा धन्यवादः महोदय नरेश महोदय नमस्कारः रघुपति महोदय नमस्कारः शीतल भगिनी वदतु
पुस्तक में वो आगता गई अदय आगता नहीं है आगता है आगता
आगता है इति आगतः इति विशेषणम् अस्ति सः आगतः आगतः पठितः पुस्तकः इति अस्ति खलु पठितं पुस्तकं मया पठितं पुस्तकं किन्तु तत्र पठितम् इति कर्मणि अर्थे कर्मार्थे अस्ति कर्तृ अर्थे आगतः इति अस्ति सः आगतः ते आगताः बहुवचने बहुवचने गाः इति ओ अस्तु अस्तु फुल् फुल् हा चाहिए फुल् हा फुल् गा चाहिए कुत्र अस्ति एकनिमिषः कुत्र अस्ति तत् आगताः
प्रथमदृश्यम्
ओ प्रथम अस्तु 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 तत्र सर्वे आगताः किम् इति सर्वे आगताः सर्वे आगताः घ इति एव अस्ति पूर्णम् अस्ति
घस्ति पूर्णं नास्ति
ओ अस्तु आग्धाः इति अस्ति वा अस्तु आगताः इति रूपम् आगताः इति रूपम् अस्तु भगिनि नमस्कारः
धन्यवादः
नमस्कारः
नमस्कारः